अथ जितन्ते स्तोत्रे चतुर्थोऽध्यायः।
जितन्ते पुण्डरीकाक्ष पूर्णषाड्गुण्यविग्रह। नमस्ते हृषीकेश महापुरुषपूर्वज। देवानां दानवानां च सामान्यमधिदैवतम्। सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव। एकस्त्वमस्य लोकस्य स्रष्टा संहारकस्तथा अध्यक्षश्चानुमन्ता च गुणमाया समावृतः। संसारसागरं घोरमनन्तक्लेशभाजनम् त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः। न ते रूपं न चाकारो नायुधानि न चास्पदम्। तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे। नैव किञ्चित् परोक्षं ते प्रत्यक्षोऽसि न कस्यचित्। नैव किञ्चिदसिद्धं ते न च सिद्धोऽसि कर्हिचित्।
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम्।
योगानां परमां सिद्धिं परमं ते पदं विदुः। अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे। पाहि मां पुण्डरीकाक्ष न जाने शरणं परम्। कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत। शरीरे च गतौ चास्य वर्तते मे महद्भयम्। त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि। निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम्। विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमूर्जितम्। जन्मान्तरेऽपि देवेश मा भूदस्य परीक्षयः। दुर्गतावपि जातायां त्वद्गतो मे मनोरथः। यदि नाशं न विन्देत तावतास्मि कृते सदा। न कामकलुषं चित्तं मम ते पादयोस्थितम्। कामये वैष्णवत्वं च सर्वजन्मसु केवलम्। अज्ञानाद्यदिवाज्ञानादशुभं यत्कृतं मया। क्षन्तुमर्हसि देवेश दास्येन च गृहाण माम्। सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत। किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः। इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने। किङ्करोऽस्मीति चात्मानं देवाय विनिवेदयेत्। मादृशो न परः पापी त्वादृशो न दयापरः। इति मत्वा जगन्नाथ रक्ष मां गरुडध्वज। यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम। अग्नस्य मम देवेश तत्सर्वं क्षन्तुमर्हसि। अहङ्कारार्थकामेषु प्रीतिरद्यैव नश्यतु। त्वां प्रपन्नस्य मे सैव वर्धतां श्रीपते त्वयि। क्वाहमत्यन्तदुर्बुद्धिः क्व नु चात्महिते क्षणम्। यद्धितं मम देवेश तदाज्ञापय माधव। सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च। सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे। उपचारापदेशेन क्रियन्ते हर्निशं मया। अपचारानि मान् सर्वान् क्षमस्व पुरुषोत्तम। न जाने कर्म यत्किञ्चिन्नापि लौकिकवैदिके। न निषेध विधि विष्णो तव दासोऽस्मि केवलम्।
सत्त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम्। संसार सागर निमग्नमनंत दीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि।
करचरणकृतं वा कायजं कर्मजं वा श्रवणमननजं वा मानसं वा पराधम् विहितमविहितं वा सर्वमेतत्क्षमस्व। जय जय करुणाब्धे श्रीपते श्रीमुकुन्द। कर्मणा मनसा वाचा या चेष्टा मम नित्यशः केशवाराधने सा स्याद् जन्म जन्मान्तरेष्वपि। इति जितन्ते स्तोत्रे चतुर्थोऽध्यायः।